इन्द्रोवदाय वावृधे सपदे वृत्रहानृभिः तमिन्महस्वाजिषूते मध्ये हवामहे समाजेषु प्रणाविशत् असिरसेन्योऽसि भूरि वदादतिः अतीयभ्रस्यजिदृशायमानाय शिक्षति सुन्वते भूरि ते वसु यदुदीरत आदयो धृष्णवे धीयते धराः युक्ष्वामदच्युता हरीकम्भनष्टम् वसूदधो स्माङ्गिन्द्रवसूदधः भृत्वा महाङ्गानुष्वधम् भीमहावावृधे समाः श्रियरिष्वभूपादयोर्निधि प्रेहरीवान्तधे हस्तायोर्वज्रमायसम् आवप्रोपार्थिवम् रजो बद्धे रोचनादिवि न त्वाङ्गिन्द्रकश्चन न जातो न च निष्यते दिविश्वम् ममक्षित यो हर्यो मत्तभोजनम् वना ददादिदासुषे इन्द्रो अस्मभ्यम् शिक्षणविभजा भूरि देवसु भक्षीयत पराधयतः मदे मदेहिनो दधिर्यूसानवामृजुक्रतुः सङ्ग्रेभाय पुरोषतो भाजा हस्यावसूचिजीहि राजाभार मादयस्व सुते स च समसे दूरराधसे विद्मा यद्वा पुरो वसुमुपकामान् स सिद्मयेषा नो हिता भव एते च इन्द्रजन्तवो विश्वम् पुष्यन्ति वार्यम् अन्तर्हिक्षो जनानामर्यो वेदो अदाशुषाम् तेषाम् नो